सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. एनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्माकं पाठः अस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाश्च. तत्करपत्रं पठ्यमानमस्ति. सारांशत्वेन किञ्चित् वक्तव्यं चेत् धातुतः विधीयमानः प्रत्ययः सार्वधातुकः चेत् सार्वधातुकतिङ् वा भवतु सार्वधातुककृत् प्रत्ययः कर्त्रार्थककृत् प्रत्ययः वा भवतु प्रक्रिया समाना अस्ति. वस्तुतः प्रक्रिया द्विधा उच्यते, सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया, तावदेव. प्रत्ययः सार्वधातुकः चेत् सः प्रत्ययः तिङ् वा भवतु कृत् वा भवतु द्वयोः प्रसङ्गे समाना प्रक्रिया वर्तते, समानं चिन्तनम् अस्ति, समानानि सूत्राणि प्रवर्तन्ते द्वयोः प्रसङ्गे, सार्वधातुकतिङ्क्षु सार्वधातुककर्त्रार्थककृत् प्रत्ययेषु परेषु समानानि सूत्राणि प्रवर्तन्ते. इत्युक्ते सार्वधातुकतिङन्तरूपसिद्धौ यादृशानि सूत्राणि आवश्यकानि भवन्ति तादृशानि सूत्राणि एव सार्वधातुककर्त्रार्थककृदन्तानां प्रसङ्गे अपि प्रवर्तन्ते. इत्युक्ते सार्वधातुकतिङन्तप्रक्रियां जानीमश्चेत् पुनः सार्वधातुककर्त्रार्थककृदन्तानां प्रसङ्गे पठनस्य आवश्यकता नास्ति, प्रक्रियासौलभ्यमस्ति. तदर्थमेव अस्मिन् करपत्रे शत्रन्तरूपाणि दत्तानि. उपरितने भागे शत्रन्तरूपाणि परिशील्य सार्वधातुकतिङ्क्षु सार्वधातुककृत्सु समानानि कार्याणि भवन्ति इति अवगतवन्तः. इत्युक्ते सार्वधातुकतिङन्तरूपसिद्धौ कर्तरि शपायति, कर्तरि शपायति चेत् अन्ये गणविकरणाः आयान्ति इति अवगतं. शत्रन्तरूपसिद्धौ अपि गणचिन्तनं भवति इति अवगतवन्तः. तत्र गणविकरणप्रत्ययस्य भेदेन रूपभेदः, अपि च विकरणप्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे अङ्गकार्याणि भिद्यन्ति इति अन्यत् कारणमस्ति. कारणद्वयेन शत्रन्तरूपेषु रूपभेदाः जायन्ते इति पठितवन्तः. एतावत्पर्यन्तं सार्वधातुकप्रक्रियायाः प्रसङ्गे करपत्रात् पठितवन्तः. आर्धधातुकप्रक्रियायाम् अपि एतादृशं चिन्तनमेव भवति. इत्युक्ते आर्धधातुकप्रक्रियायाम् अपि तिङ्क्षु कृत्सु प्रक्रिया समाना अस्ति, चिन्तनं समानमस्ति, समानानि सूत्राणि प्रवर्तन्ते. अस्मिन् करपत्रे केषाञ्चन आर्धधातुककृदन्तानां चिन्तनं दत्तमस्ति. उदाहरणार्थं नूल् प्रत्ययान्तरूपाणि, अनियर् प्रत्ययान्तरूपाणि दत्तानि. णिच् प्रत्ययः अपि आर्धधातुकप्रत्ययः खलु, अतः णिच् प्रत्ययान्तरूपाणि अपि वयं परिशीलयामश्चेत् सुलभतया अवगन्तुं शक्नुमः यत् आर्धधातुकप्रक्रियायाम् अपि तिङन्तरूपेषु कृदन्तरूपेषु प्रक्रिया समाना अस्ति इति स्पष्टतया अवगन्तुं शक्नुमः. अद्य वयम् अस्मिन् करपत्रे बि बिन्दुतः आरभ्य पठेम. आर्धधातुकतिङ्क्षु आर्धधातुककृत्सु प्रक्रियासाम्यमस्ति, चिन्तनसादृश्यमस्ति इति निष्कर्षः लभ्यते. णुवुल् प्रत्ययान्तरूपाणि साधयामः, अनियर् प्रत्ययान्तरूपाणि अपि एकवारं परिशीलयामः, अपि च णिच् प्रत्ययान्तरूपाणि परिशीलयामश्चेत् वयम् इतोपि स्पष्टतया अवगन्तुं शक्नुमः. समानानि सूत्राणि प्रवर्तन्ते, अपि च आर्धधातुकप्रक्रियायाः प्रसङ्गे किमर्थं भिन्नरीत्या वर्गीकरणं कृतवती. सार्वधातुकप्रक्रियायाः प्रसङ्गे उपद्विसहस्रं धातवः दशसु गणेषु विभक्ताः सन्ति इति पठितं, किन्तु आर्धधातुकप्रक्रियायाः प्रसङ्गे तत् पर्याप्तं नास्ति. आर्धधातुकप्रक्रियायाः प्रसङ्गे मातृभिः भिन्नरीत्या वर्गीकरणं कृतम् अस्ति. चतुर्दशवर्गेषु सर्वे उपद्विसहस्रं धातवः विभजिताः सन्ति. सार्वधातुकप्रक्रियायां यादृशरीत्या सर्वेषां धातूनां गणविभजनं भवति तादृशं चिन्तनं कुर्मः चेत् आर्धधातुकप्रक्रियायां तद् पर्याप्तं न भवति. तदर्थमेव मातृभिः अस्माकं प्रक्रियासौलभ्यार्थम् आर्धधातुकप्रक्रियायाः प्रसङ्गे भिन्नरीत्या चतुर्दशवर्गेषु उपद्विसहस्रं धातूनां वर्गीकरणं कृतवती. इदानीं करपत्रात् पठामः. नरेश महोदय, भवान् पठतु.
आर्धधातुकानां कट् प्रत्ययानां रूपाणि उपयुक्तान् नव प्रत्ययान् विहाय अवशिष्टाः सर्वे कृत् प्रत्ययाः अशत्वात् आर्धधातुकाः. कृत् प्रत्ययः आर्धधातुकश्चेत् धातुगणम् अनुसृत्य कृदन्तपदानां कोऽपि रूपभेदो नास्ति. अतः अत्रापि आर्धधातुकलकाराः एव धातुगणानां न कापि भूमिका. अत्र दत्तमस्ति कृत् प्रत्यय विषये तानि प्रत्ययः षित् नास्ति, अतः आर्धधातुकप्रत्ययः सन्ति. तत्र कोऽपि गणभेदः नास्ति यत् सार्वधातुक प्रत्यय अस्ति चेत्. अत्र धातुगणः नास्ति.
उपरि उक्तान् नवकृत् प्रत्ययान् विहाय इति लिखितमस्ति. सुन्दरमहोदय, भवान् जानाति वा नवप्रत्ययान् जानाति वा?
आम् जानामि जानामि.
वदतु उदाहरणानि. वदतु. एवम् अत्र नवप्रत्ययाः सन्ति. एते नवप्रत्ययाः सार्वधातुककृत् प्रत्ययाः, शित्वात् सार्वधातुककृत् प्रत्ययाः. किन्तु प्रत्ययः अशित् अस्ति चेत् आर्धधातुकप्रत्ययः भवति. वयं जानीमः खलु तिङ्क्षित् सार्वधातुकम् इति सूत्रेण नवशित् प्रत्ययाः सार्वधातुकाः भवन्ति. अन्ये सर्वे प्रत्ययाः अशित्वात् आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकाः भवन्ति. केवलं नव कृत् षित् प्रत्ययान् विहाय, नव कृत् षित् प्रत्ययान् विहाय अन्ये सर्वे कृत् प्रत्ययाः आर्धधातुकाः, अशित्वात् आर्धधातुकाः, आर्धधातुकं शेषः इति सूत्रेण अन्ये सर्वे कृत् प्रत्ययः आर्धधातुकाः भवन्ति. अपि च कृत् प्रत्ययः आर्धधातुकश्चेत् धातुगणचिन्तनं न भवति. अपि च कृदन्तपदानां रूपभेदः नास्ति. अस्य अर्थः कः? अनियर् प्रत्ययं स्वीकुर्मः. कृत् प्रत्ययः आर्धधातुकश्चेत् धातुगणम् अनुसृत्य रूपभेदः नास्ति. उदाहरणार्थम् अनियर् प्रत्ययं स्वीकुर्मः चेत् अनियर् इति प्रत्ययः षित् नास्ति, अशित् अस्ति, अतः आर्धधातुकप्रत्ययः. तिङ् नास्ति इति कारणतः कृत् प्रत्ययः. तत्र धातुगणम् अनुसृत्य रूपभेदः नास्ति. उदाहरणार्थं पठ् धातुतः पठनीयं, गम् धातुतः गमनीयं, खाद् धातुतः खादनीयं, दा धातुतः दानीयं, चोरणीयम्, एवं रूपाणि भवन्ति. अयं प्रत्ययः आर्धधातुकप्रत्ययः इति कारणतः धातुगणचिन्तनम् अनावश्यकम्. सः प्रत्ययः सेट् वा अनिट् वा इति एव द्रष्टव्यमस्ति. इत्युक्ते धातुगणम् अनुसृत्य रूपभेदः नास्ति कृत् प्रत्ययः आर्धधातुकश्चेत्. अपि च अस्मिन्नेव परिच्छेदे एकं वाक्यं लिखितमस्ति, अर्धधातुकलकाराः इव धातुगणानां न कापि भूमिका इति लिखितमस्ति. नरसिंहहेग्डेमहोदय, भवान् वदतु अस्य अर्थः कः?
अतः अत्रापि अर्धधातुकलकाराः इव धातुगणानां न कोऽपि भूमिका. अत्र गणविकरणप्रत्ययः न आयान्ति. अत्र आर्धधातुकलकारः यत् षड् लकाराः सन्ति तत्रापि गणविकरणप्रत्ययः न आयन्ति. तत्र विभिन्न लकारप्रत्ययः उक्तमस्ति साक्षात् सूत्ररूपेण. अत्रापि अत्र किं भवति, कृत् प्रत्ययः आर्धधातुकश्चेत् धातुगणम् अनुसृत्य कृदन्तानां कोऽपि रूपभेदो नास्ति. अत्र एत नवशित् प्रत्यय अन्ये सर्वे आर्धातुककृत् प्रत्ययः इति वयं जानीमः. यदि आर्धातुककृत् प्रत्ययः तत्र विकरणप्रत्ययः ज्ञायते. किमर्थम् इत्युक्ते कर्तरि शप् इत्यस्य निमित्तमस्ति सार्वधातुककर्तृकप्रत्ययपरे भवति, परन्तु अर्धातुकः अस्ति चेत् तत् न भवति. अतः तत् कर्तरि शप् अपि न यायति, कर्तरिश प्रवद्य अन्ये गणविकरणप्रत्ययः अपि न यायन्ति. तदेव महोदय अत्र.
तदेव, किन्तु मम आशयः कः, भवन्तः सर्वे जानन्ति एव, पुनस्मरणत्वेन किञ्चित् अत्र ज्ञातव्यमस्ति. अर्धधातुकलकाराः इव धातुगणानां न कापि भूमिका इति लिखितमस्ति. वयं जानीमः खलु दशलकाराः सन्ति, दशसु लकारेषु केवलं चत्वारः लकाराः एव सार्वधातुकाः, अन्ये षट् लकाराः आर्धधातुकाः. सार्वधातुकलकाराः इत्युक्ते लट् लोट् लङ् विद् लिङ्, एतान् लकारान् विहाय एतान् चतुरः इति वक्तव्यमस्ति. चतुरः लकारान् त्यक्त्वा विहाय अन्ये षट् लकाराः आर्धधातुकलकाराः भवन्ति. किमर्थं सार्वधातुकाः इति वदामः इत्युक्ते तेषु लकारेषु धातुः कर्त्रार्थकतिङ् प्रत्ययं पश्यति. सार्वधातुकलकारेषु धातुना कर्त्रार्थकतिङ् प्रत्ययः साक्षात् दृश्यते, अतः कर्तरिष्यपागन्तुं शक्नोति, धातुगणचिन्तनं भवति. किन्तु अवशिष्ट षट् लकाराः सन्ति खलु, तेषु षण्णां लकाराणां का गतिः इति प्रश्ने सति, तेषु लकारेषु केवलं लकारद्वये तिङ्प्रत्ययाः साक्षात् आर्धधातुकाः इति पाणिनिः उक्तवान्. लिट्च सूत्रेण लिट् लकारे, लिङ्गाशिषिसूत्रेण आशीर्लिङ्लकारे तिङ्प्रत्ययाः यद्यपि सार्वधातुकाः तथापि अपवादसूत्रद्वयेन तस्मिन् लकारद्वये तिङ्प्रत्ययाः आर्धधातुकाः भवन्ति इति उक्तत्वात् द्वौ लकारौ आर्धधातुकौ इत्युक्ते साक्षात् तस्मिन् लकारद्वये तिङ्प्रत्ययः आर्धधातुकाः भवन्ति इति पाणिनिः उक्तवान्, सूत्राधारेण उक्तवान्. तस्मिन् लकारद्वये आर्धधातुकप्रक्रियाम् उपयुज्य रूपसिद्धिः भवति. अन्येषु चतुर्षु लकारेषु किं भवति, अन्येषु लकारेषु धातुः लकारनिमित्तिकविकरणप्रत्ययं पश्यति, इत्युक्ते धातुः कर्त्रार्थकटिङ् प्रत्ययं न पश्यति, धातुः लकारनिमित्तिकविकरणप्रत्ययं पश्यति अन्येषु चतुर्षु लकारेषु. इत्युक्ते धातुना कर्त्रार्थकटिङ् प्रत्ययः न दृश्यते तेषु लकारेषु, इत्युक्ते धातुः तिङ् प्रत्ययं न पश्यति, मध्ये लकारनिमित्तिकविकरणप्रत्ययम् आगत्य उपविशति इति कारणतः धातोः पुरतः लकारनिमित्तिकविकरणप्रत्ययः अस्ति. लृट् लकारे स्या इति लकारनिमित्तिकविकरणप्रत्ययः, स्या इति आर्धधातुकप्रत्ययः, अतः धातुः स्या इति आर्धधातुकलकारनिमित्तिकविकरणप्रत्ययं पश्यति लृट् लकारे. लृङ् लकारे अपि तथा एव, स्या इति लकारनिमित्तिकविकरणप्रत्ययः आर्धधातुकः तं प्रत्ययं पश्यति धातुः लृङ् लकारे अपि. लुट् लकारे तास् इति प्रत्ययः आयाति, तासपि आर्धधातुकप्रत्ययः, तिंशित् नास्ति खलु, अतः आर्धधातुकप्रत्ययः. अपि च लुङ् लकारे चिलि इति प्रत्ययं पश्यति धातुः, अतः लृट् लकारे, लृङ् लकारे, लुट् लकारे, लुङ् लकारे एतेषु चतुर्षु लकारेषु धातुः आर्धधातुकलकारनिमित्तिकविकरणप्रत्ययं पश्यति, इत्युक्ते धातोः पुरतः लकारनिमित्तिकविकरणप्रत्ययः अस्ति, अतः धातुः लकारनिमित्तिक आर्धधातुकविकरणप्रत्ययं पश्यति, अतः सा प्रक्रिया आर्धधातुकप्रक्रिया इति वदामः. आहत्य दशसु लकारेषु षट् लकाराः आर्धधातुकलकाराः भवन्ति. एवं रीत्या आर्धधातुकलकाराः इव आर्धधातुककृदन्तानां प्रसङ्गे अपि धातुगणचिन्तनं नास्ति, धातुगणानां न कापि भूमिका इति तदर्थं लिखितमस्ति. इत्युक्ते आर्धधातुककृत् प्रत्ययः इत्युक्ते अशित् प्रत्ययाः सर्वे आर्धधातुकाः भवन्ति. अशित् प्रत्यये परे तत्र आर्धधातुकप्रक्रिया अनुसरणीया. आदौ शपायाति चेदेव शपं निमित्तीकृत्य कार्याणि भवन्ति, शप् न आयाति चेत् तस्य अनन्तरं चिन्तनस्य आवश्यकता नास्ति. इत्युक्ते शप् न आयाति चेत् तस्मिन् स्थाने अन्ये गणविकरणाः अपि न आयान्ति, इत्युक्ते आर्धधातुकप्रक्रियायां गणचिन्तनं नास्ति, केवलम् इडागमचिन्तनमेव करणीयं. सः धातुः सेट् वा अनिट् वा, सः प्रत्ययः सेट् वा अनिट् वा, तथा इडागमचिन्तनं करणीयम्. आर्धधातुकप्रक्रिया सौलभ्यार्थं धातवः चतुर्दशगणेषु विभक्ताः सन्ति इत्यपि स्मर्तव्यम्. अग्रे नरेश महोदय पठतु.
कर्त्रर्थे आर्धधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदः नास्ति. आर्धधातुक कृत् प्रत्ययेषु परेषु धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम गणं निमित्तीकृत्य रूपभेदः न भवति. न्वल् इति प्रत्ययं क्षेम. अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ् न वशित् अतः आर्धधातुकः. चुटु इत्यनेन नकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन लकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः वु अवशिष्यते. युवारणाकौ अङ्गात् उत्तरस्य यु वु इत्यनयोः स्थाने क्रमशः अन अक च आदेशौ भवतः. अतः वो स्थाने अक आदेशः सर्वत्र. अत्र दत्तमस्ति आर्धधातुक प्रत्यय अस्ति चेत् तत्र कोऽपि गणभेदः न भवति. यथा नुल् प्रत्यय अस्ति
कर्त्रर्धे इति अपि लिखितमस्ति. इत्युक्ते कर्त्रर्धक आर्धधातुक कृत् प्रत्ययः णुवुल् इति अर्थः खलु. कर्मार्थक आर्धधातुक कृत् प्रत्ययाः अपि सन्ति. अनियर् कर्मार्थकप्रत्ययः. किमर्थं णुवुल् प्रत्ययस्य उदाहरणम् अत्र दत्तमस्ति इत्युक्ते णुवुल् प्रत्ययः कर्त्रर्धकः आर्धधातुकः कृत् प्रत्ययः. भवान् वदतु, विवृणोतु एकमेकं पदम्.
णुवुल् प्रत्यय प्रथम तु चुटु सूत्रेण नकारस्य इत्संज्ञा भवति, अपि च हलन्त्यं सूत्रेण अन्तिम लकारस्य अपि इत्संज्ञा भवति, तस्य लोपः सूत्रेण तस्य तयोः लोपः भवति. नुल् तत्र केवलं वु अवशिष्यते. वु अवशिष्यते चेत् तत्र युवारणाकौ सूत्रम् आगच्छति. युवारणाकौ सूत्रेण यदा वु अवशिष्यते, वु तत्र अन भवति, न यु अवशिष्यते चेत् अन भवति, वु अवशिष्यते चेत् अक भवति. अत्र न्वुल् अस्ति, तत्र वु अवशिष्यते, अतः अक भवति. अग्रे उदाहरणमस्ति पठ्. पठ् धातुः अस्ति, अतः नुल् प्रत्यय अक अवशिष्यते, तत् तत् पाठकः भवति.
उत्तमं. तदेव आर्धधातुककृत्प्रत्ययेषु परेषु धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम गणं निमित्तीकृत्य रूपभेदः नास्ति. तदवगन्तुमेव अग्रे उदाहरणानि दत्तानि. भूधातुतः भावकः, पठ् धातुतः पाठकः, वच् धातुतः वाचकः, दा धातुतः दायकः, नश् धातुतः नाशकः, आप् धातुतः आपकः. इत्युक्ते एते धातवः भिन्नभिन्नगणेषु सन्ति किन्तु तत्र रूपसाम्यं दृश्यते. गणं निमित्तीकृत्य तत्र रूपभेदः नास्ति इति अवगन्तुं शक्नुमः. रूपाणि परिशीलयामश्चेत् पाठकः, वाचकः, दायकः, लेखकः, भेदकः, कारकः. अत्र दशसु गणेषु एकमेकं धातुं नीत्वा रूपं दत्तवन्तः. अत्र रूपभेदः गणं निमित्तीकृत्य नास्ति. धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम तत्र गणं निमित्तीकृत्य रूपभेदः नास्ति. किन्तु तत्र रूपभेदः किमर्थं जायते इत्युक्ते आर्धधातुकप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भिद्यते. पश्यन्तु लिख् धातोः प्रसङ्गे लेखकः भवति, भिद् धातोः प्रसङ्गे भेदकः भवति, क्रू धातोः विषये कारकः भवति. इत्युक्ते अङ्गकार्यं भिद्यते इति कारणतः रूपभेदः, किन्तु तत्र गणं निमित्तीकृत्य रूपभेदः नास्ति इति अवगन्तव्यम्. अपि च णुल् प्रत्ययः कीदृशः, भवान् वदतु, वर्णनं करोतु.
णुल् प्रत्यय तत्तु कर्त्रार्थे आर्धधातुककृत् प्रत्ययः अस्ति.
कर्त्रार्धकप्रत्ययः इत्युक्ते कर्तरी कृत् इति सूत्रेण कर्त्रार्धकप्रत्ययः. किमर्थं चेत् यस्य शब्दस्यान्ते कृत् प्रत्ययाः सन्ति ते प्रत्ययाः साधारणतया कर्त्रार्धकं पदं निर्मान्ति, तेन कर्त्रार्धकं पदं निर्मितं भवति. अपि च तिंशित् नास्ति इति कारणतः आर्धधातुकः, आर्धधातुकं शेषः इत्यनेन. अपि च तिङ् नास्ति इति कारणतः अतिङ् अस्ति इति कारणतः कृत् प्रत्ययः, कृद तिङ् इति सूत्रेण अतिङ् प्रत्ययः, अतः कृत् प्रत्ययः. प्रत्ययं पश्यामश्चेत् किं करणीयम्? अनुबन्धलोपः करणीयः. अनुबन्धलोपं कुर्मः चेत् वु अवशिष्यते. तदनन्तरं युवोरनाकौ इति सूत्रेण तत्र वु स्थाने अक आदेशः भवति चेत् अयं प्रत्ययः अजादिः भवति. अजादिः भवति चेत् इडनुकूलः वा न वा? इडनुकूलः नास्ति. अपि च धातुतः णुवल् प्रत्ययस्य योजनेन आदौ प्रातिपदिकं सिध्यति. यद्रूपं प्रत्ययस्य योजनेन निर्मितं भवति आदौ तत् प्रातिपदिकमेव. तत् प्रातिपदिकं स्वीकृत्य सुप् प्रत्ययस्य योजनेन सुबन्तं सिध्यति. अत्र पाठक इति प्रातिपदिकमेव, पाठक प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु त्रिषु वचनेषु सप्तसु विभक्तिषु रूपाणि साधयितुं शक्नुमः. पुंलिङ्गे पाठकः, स्त्रीलिङ्गे पाठिका, नपुंसकलिङ्गे पाठकम्, एवं रूपाणि भवन्ति. त्रिषु वचनेषु अपि रूपाणि भवन्ति, सप्तसु विभक्तिषु अपि रूपाणि भवन्ति. अपि च कृदन्तम् इति कथनेन यस्य शब्दस्य अन्ते कृत् प्रत्ययः अस्ति तत् कृदन्तम्. यस्य शब्दस्य अन्ते कृत् प्रत्ययः अस्ति तत् कृदन्तम्. पाठक इति केवलं प्रातिपदिकं, तस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च इति सूत्रेण दीयते. इत्युक्ते यस्य शब्दस्य अन्ते कृत् प्रत्ययः अस्ति सः प्रातिपदिकं भवति, तस्य प्रातिपदिकसंज्ञा दीयते. अपि च अनेन सूत्रेण एव तद्धितान्तपदानां प्रातिपदिकसंज्ञा दीयते. सामासिकशब्दानां प्रातिपदिकसंज्ञा अपि अनेन सूत्रेण, इत्युक्ते कृत्तद्धितसमासाश्च सूत्रेण प्रातिपदिकसंज्ञा दीयते. शब्दस्य प्रातिपदिकसंज्ञा अस्ति चेदेव तस्मात् परं सुप्रत्ययं योजयितुं शक्नुमः. भवान् वदतु, पठ् धातुतः अक इति योजयामः, अत्र किं कार्यं भवति?
अत्र पाठक भवति अतोपधायाः सूत्रेण.
किमर्थम् अतो उपधायाः?
उपधायाम् अत् अस्ति, तत्र अतोपधायाः भवति, पाठक पठ् पाठकः भवति.
उत्तमं. पठ् धातुः अदुपधधातुः. उपधायां ह्रस्वकारः अस्ति, ठकारात् पूर्वम् उपधायां ठकारात् पूर्वं ह्रस्वकारः अस्ति इति कारणतः अयं धातुः पठ् धातुः अदुपधधातुः. इत्युक्ते उपधायां ह्रस्वकारः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण वृद्धिकार्यं भवति. कदा? णुवुल् इति प्रत्ययः णित् प्रत्ययः, णित् प्रत्यये परे तत् कार्यं भवति. निमित्तं किम् इति अपि द्रष्टव्यम्. सूत्राणि बहु लघु भवन्ति खलु, पूर्वसूत्रात् बहूनि पदानि अनुवृत्तानि भवन्ति खलु, अतः अत उपधायाः इत्यस्मिन् सूत्रे अपि पूर्वसूत्रात् णिति इति अनुवृत्तं भवति. इत्युक्ते अत्र णित् प्रत्ययः परः अस्ति, णुवुल् णित् अस्ति इति कारणतः णित् प्रत्यये परे उपधायां स्थितस्य ह्रस्व अकारस्य वृद्धिः भूत्वा पाठ् भवति. पाठ्योगः अक पाठक इति रूपं सिद्ध्यति. लेखकः इत्यत्र किं भवति?
लेखकः तत्र गुणकार्यं कुत भवति? गुणकार्यं भवति लिख लेख भवति विस्मरामि
तदेव धातुगणम् अनुसृत्य रूपभेदः नास्ति किन्तु अत्र नुवल् प्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे अङ्गकार्यं भिद्यते इति वार्ता इत्युक्ते अक इति प्रत्ययं निमित्तीकृत्य धातुम् अनुसृत्य धातौ अङ्गकार्यं भिद्यते अत्र पश्यतु पठ् धातुः वच् धातुः नश् धातुः एतेषां त्रयाणां प्रसङ्गे चिन्तनं समानमस्ति पठ् धातुः अपि अदुपधधातुः वच् धातुः अपि अदुपधधातुः नश् धातुः अपि अदुपधधातुः अतः तत्र समानं कार्यमस्ति अत उपधायाः इति सूत्रेण कार्यं भवति वृद्धिकार्यम्
अत्र उपधायां अकार नास्ति अतः
अत्र धातुः धातुम् अनुसृत्य धातोः रूपम् अनुसृत्य नूल् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भिद्यते तेन कारणेन रूपभेदः जायते इति अवगन्तव्यमस्ति नरसिंहहेग्डे महोदय भवान् पठतु अग्रे
इमानि रूपाणि तत्र
अस्य मार्गस्य अवलोकनेन
तक्षणं सार्वधातुक प्रक्रियातः महान् भेदः लक्ष्यते स च भेदः अत्र सार्वधातुकत्वात् कर्तरि शप् इत्यनेन शप् न भवति शप अभावे न कस्यापि विकरणप्रत्ययस्य अवसरः तस्मात् धातुगणीयभेदः नास्ति एव वादौ पट् योगाक पाठकः अदादौ वच् योगाक वाचकः ज्योत्यादौ दा योगाक दायकः दायक प्रातिपदिकं भवति अनन्तरं दायकः इति एकवचनरूपं दिवादौ नश् योगाक नाशक स्वादौ आप् योगाक आपकः तुदादौ लिक् योगाक लेखक रुदादौ बिद् योगाक भेदक तनादौ कृ योगाक कारक क्रयादौ क्रि योगाक क्रायक चुरादौ चुर् चोरि इति धातुः योगाक चोरक इति रूपं भवति अत्र यथा वयम् उपरि दृष्टं तत्र अर्धधातुक इति कृत्वा तत्र कर्तरि शप् इत्यस्य प्रसक्तिः न भवति यदा कर्तरि शप् इत्यस्य प्रसक्तिः न भवति तत्र गणीयविकरणप्रत्ययः अपि नायान्ति अतः तत्र किमपि रूपभेदं न दृश्यते विकरणप्रत्ययेन अतः रूपं समानमेव दृश्यते सर्वेषां गणानां सर्वेषां धातूनाम् अत्र उदाहरणं दत्तमस्ति भिन्नभिन्नगणीय यदि बादिगणे पट्योगाक अत्र किं भवति नूल् प्रत्ययं नीत्वा रूपाणि दत्तमस्ति अत्र कुत्रचित् गुणः भवति पुगन्तलघुपदस्य च इत्यनेन कुत्रचित् अत उपादाय इत्यनेन वृद्धिः भवति उपादायाः
महोदय
पट्योगाक अत्र पट्टि तत्र उपादायाम् अकारोत्तरवर्ति अकार ऋस्वकारः अस्ति अतः अत्र अत उपादाय इत्यनेन तत्रैव तस्य वृद्धिः भवति पाठ् इति भवति पाठ् योगाक पाठकः भवति अदादिगणे वच् योगाक अत्रापि समानरीत्या अकारोत्तरवर्ति अकारस्य वृद्धिः भूत्वा वाच् भवति वाच् योगाक वाचकः भवति युवतगणे दायोगाक अत्र दायकः अत्र किमपि सूत्रमस्ति महोदय विस्मृतवान् तत्र यकारस्य
अत्र धातुः अदुपधधातुः नास्ति दीर्घ आकारान्तधातुः अस्ति अतः अत्र भेदः अस्ति धातुरूपभेदः अस्ति पठ् वच् नश् एते धातवः अदुपधधातवः अतः तत्र कार्यं समानम् अस्ति अत उपधायाः सूत्रेण वृद्धिकार्यं भूत्वा पठ् धातुतः पाठक वच् धातुतः वाचक नश् धातुतः नाशक भवति किन्तु जुहोत्यादिगणे दाधातुतः नुवल् प्रत्ययस्य योजनेन तत्रैकं सूत्रमस्ति आतो युक् छिण् कृतोः इति सूत्रमस्ति आतः इति कथनेन आकारान्तधातुः इति अर्थः आतो युक् छिण् कृतोः युक् आगमः भवति इति अर्थः अस्ति आकारान्तधातोः प्रसङ्गे कृत् णित् प्रत्यये परे चिण् कृतोः इति उक्तमस्ति आतो युक् चिण् कृतोः इति सूत्रेण आकारान्तधातूनां प्रसङ्गे कृत् णित् प्रत्यये परे युक् आगमः भवति युक् इत्यत्र ककारः इति संज्ञकः उकारः अपि अपगच्छति य अवशिष्यते तत्र दायक इति रूपं भवति अत्र विशिष्टं सूत्रम् आवश्यकमस्ति सर्वेषाम् आकारान्तधातूनां केवलं युक् आगमः एव भवति वा न भिन्नभिन्न आगमाः भवन्ति कुत्रचित् लुक् आगमः भवति कुत्रचित् पुक् आगमः भवति दाधातोः प्रसङ्गे णिच् प्रत्ययपरे दापयति इति रूपं सिध्यति तत्र अर्ति ह्रीव्लि क्नूयि क्ष्मायातां पुङ् नौ इति सूत्रेण पुक् आगमः भवति णिच् प्रत्ययः अपि णित् प्रत्ययः णिच् प्रत्ययः अपि अर्धधातुकः नुवुलपि अर्धधातुकः अत्र दाधातोः प्रसङ्गे सर्वदा आर्धधातुकणित् प्रत्ययपरे युक् आगमः एव भवति वा इति प्रश्ने सति न इति एव वक्तव्यमस्ति अत्र णूल् प्रत्ययपरे युक् आगमः भवति णिच् प्रत्ययपरे पुक् आगमः भवति दाधातुः आकारान्तधातुः अत्र सूत्रमस्ति अतो युक् चिन् कृतोः भवान् वदतु अग्रे
अत्रापि उपधायमकारः स्वकारः तस्य वृद्धिः भवति नाशक इति भवति आप् योगाक केवलं वर्णमेलनम् आपक तदादौ लिक् योगाक अत्र उपादायं ह्रस्व इक्वल् नास्ति अतः अक इति अर्धधातुकप्रत्ययः अस्ति कृत् प्रत्ययः अर्धधातुकृत् प्रत्ययः अस्त पुगन्तलघुपदस्य च इति सूत्रेण गुणः भूत्वा लेखक इति भवति तदादौ बिद् योगाक अत्रापि पुगन्तलघुपदस्य चैत्येन गुणः भेदक तनादौ कृ योगाक अत्र कृयोग अक अत्र अन्ते ऋकार इगन्तलिङ्गमस्ति ऋकारः अस्ति अतः तस्य वृद्धिः भवति अचोणिति इत्यनेन वृद्धिः भवति
पूर्वस्मिन् धातौ इत्युक्ते लिख् धातोः प्रसङ्गे लिख् धातुः लघु इगुपदधातुः अस्ति अत्र धातुः कीदृशः इति द्रष्टव्यं सुदादिगणे लिख् धातुः लघु इगुपदधातुः अतः पुगन्तलघुपदस्य च सूत्रेण णुवुल् प्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे गुणकार्यं भूत्वा लेख् भवति लेखक इति रूपं भवति एवमेव भिद् धातुः अपि लघु इगुपदधातुः अतः गुणकार्यं पुगन्तलघुपदस्य च सूत्रेण भूत्वा भेद् भवति भेदक इति रूपं भवति किन्तु अत्र क्रूधातुः कीदृशः क्रूधातोः वर्णनं करोतु इति प्रश्ने सति क्रूधातुः अजन्तः अथवा इगन्तः खलु अजन्तः इगन्तः क्रू इति धातुः अजन्तः अथवा इगन्तः भवति अत्र सार्वधातुक अर्धधातुकयोः अपि च अचोयिणिति अपि च अचिष्णुधातुभ्रुवां युवोरियङ् उवङ्गौ एतेषां त्रयाणां सूत्रस्य प्रसक्तिः अत्र अस्ति वा नास्ति वा त्रयाणां सूत्राणां प्रसक्तिः अत्र अस्ति वा
तत्र अचिष्णुधातुभ्रुवाम् इत्यस्य प्रसक्तिः तु नास्ति किमर्थमित्युक्ते इकारः उकारः नास्ति अन्ते परन्तु सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति अनन्तरम् अचोणिति इत्यस्यापि प्रसक्तिः अस्ति
उत्तमम् अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं प्रबाध्य अचोणिति इति सूत्रेण क्रूधातुः अजन्तधातुः इति कारणतः अचोणिति इति सूत्रेण अत्र इणिति णूल् प्रत्ययः णित् अस्ति इति कारणतः णूल् प्रत्ययं निमित्तीकृत्य अजन्तधातौ वृद्धिकार्यं भवति अचोणिति इति सूत्रेण उरण्परः इति सूत्रमपि कार्यं करोति तत्र ऋकारस्य वृद्धिसंज्ञकवर्णः आकारः पश्चात् सः आकारः रपरः भवति अतः क्रू इत्यस्य रूपं कार् भवति कार्योगः अक कारक अग्रे वदतु
तत्र तत्रापि वृद्धिः भवति अजन्त अचोणिति इत्येन क्रै इति भवति क्रै योगाक यचोयवायव इत्येन क्रा इति भवति क्रा योगाक क्रायकः इति भवति
अत्र सार्वधातुधातुकयोः अपि च अचोयिणिति अपि च अचिष्णुधातुभ्रुवां युवोरियङ् उवङ्गौ एतेषां त्रयाणां प्रसक्तिः अत्र अस्ति वा
अत्र दीर्घ इकारः अस्ति अतः अचिष्णुधातुभ्रुवः इत्यस्य प्रसक्तिः न भवति
इकारान्तम् अङ्गम् अस्ति इति वक्तुं शक्यते शक्यते ईवर्णान्तम् अङ्गम् अस्ति चेदपि अत्र अचिष्णुधातुभ्रुवां युवोरियङ् उवङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति इतोपि किं वक्तव्यं सार्वधातुक अर्धधातुकयोः सूत्रेण गुणः न भवति
अजन्तधातु
अचोयिणिति इति सूत्रेण एव ईकारस्य वृद्धिः भूत्वा ऐकारः आयाति क्री इत्यस्य रूपं क्रै भवति, पश्चात् एचोयवायावः इति सन्धिकार्यं भूत्वा ऐकारस्य स्थाने आय् आदेशः भवति इति कारणतः क्रायकः इति रूपं सिद्ध्यति. चुरादिगणे किं भवति?
चुरादिगणे चुर् इति धातुः अस्ति, तत्र वयं जानीमः चुरादिगणे तत्र प्रथमतया निच्छायति, चुर्योग निच्छ. निच् इत्यत्र नकारस्य इत्संज्ञं भवति, चकारस्य अपि इत्संज्ञं भवति, इ अवशिष्यते. इदं चुर्योग इति आर्धातुकप्रत्ययः अस्ति. पुबन्तलोपदस्य गुणः भवति चोर् इति भवति, चोर्योग इ चोरि इति नूतनादिदेशिकधातु निजन्तधातु भवति. इदानीं चोरियोग अक पूर्ण तत्र गुणः भवति, इगन्त अङ्गमस्त अङ्गमस्ति अतः गुणः भवति चोरे इति, चोरे योग अक भवति.
तद् नास्ति, तत् कार्यं न भवति.
अत्र अन्यसूत्रमस्ति, अत्र पुनः तत्र एक तस्य लोपः भवति, अत्र
इकारस्य लोपः भवति, नेरनिट्टि
इत्यनेन. आमां नेरनिट्टि इत्यनेन तस्य लोपः भवति, चोर्योग अक चोरक इति एव भवति.
उत्तमं, बहु सम्यक्. चोरि इति नूतनधातुः, चोरि धातुतः नूल् प्रत्ययं योजयामः. नूल् प्रत्ययस्य युवरणाकौ इति सूत्रेण अक आगतः खलु, पदविभागं कुर्मः चेत् णेः अनिटि इति भवति. इत्युक्ते णेः लोपः भवति अनिट् प्रत्यये परे. अत्र नुवल् अनिट् खलु, अनिट् प्रत्ययः खलु, इत्युक्ते इडनुकूलप्रत्ययः नास्ति, अजादिप्रत्ययः. आर्धधातुकस्य वलादेः इति सूत्रेण वलादिवर्णः नास्ति, अत्र अकारः वलादिवर्णः नास्ति, अतः णुवुल् प्रत्ययः अनिट् प्रत्ययः. अनिट् प्रत्यये परे णेः लोपः भवति, णिचः लोपः भवति, इकारस्य लोपः भवति इति कारणतः चोर् भवति, चोर्योगः अक चोरक इति रूपं भवति. इदानीम् अत्र साम्यं पश्यन्तु, पठ् वच्यु नश्य एतेषां त्रयाणां प्रसङ्गे समानं चिन्तनम्, आकारान्तधातूनां प्रसङ्गे भिन्नचिन्तनम्, अपि च लिख् भिद् द्वयोः प्रसङ्गे पुगन्तलघुपदस्य च सूत्रेण अङ्गकार्यं भवति. क्रूधातुः अजन्तधातुः, क्री धातुः अपि अजन्तधातुः, अतः तत्र अचोणिति इति सूत्रेण वृद्धिकार्यं भवति. चुर् धातुः पुगन्तलघुपदस्य च सूत्रेण कार्यं भवति. आहत्य अत्र वार्ता का इत्युक्ते, धातुम् अनुसृत्य णुवुल् प्रत्ययं निमित्तीकृत्य तत्र अङ्गकार्यं भिद्यते. कुत्रचित् पुगन्तलघुपदस्य च सूत्रेण कार्यं भवति, कुत्रचित् अचोणिति सूत्रेण कार्यं भवति इति अवगन्तव्यं. महोदय, भवान् वदतु, पठ् धातोः लटीरूपं किम् अस्ति? वच् धातुतः, वच् धातुतः वक्ति,
चोको इत्यनेन, चोको इत्यनेन कुत्वं भवति,
कुत्वं भवति. उत्तमं. दा धातोः लटीरूपं धातुतः नश्यति, आप् धातुतः आप्नोति इति रूपं, लिख् धातुतः लिखति, भिद् धातुतः भिनत्ति इति रूपं, क्रु धातुतः करोति, क्री धातुतः क्रीणाति, चुर् धातुतः चोरयति. पश्यन्तु, पठति, वक्ति, ददाति, नश्यति, आप्नोति, लिखति, भिनत्ति, करोति, क्रीणाति, चोरयति, एतानि रूपाणि गणम् अनुसृत्य भिद्यन्ते. किमर्थम् एतादृशरूपभेदः इत्युक्ते, सार्वधातुकप्रक्रियायां तादृशरूपभेदः गणविकरणप्रत्ययं निमित्तीकृत्य आयाति. किन्तु अत्र पाठकः, वाचकः, नाशकः इत्यत्र रूपसाम्यम् अस्ति, लटीरूपेषु रूपसाम्यं नास्ति, तत्र गणभेदः अस्ति इति कारणतः रूपभेदः. किन्तु णूल् प्रत्ययान्तशब्देषु गणभेदरहितत्वात् रूपसाम्यं दृश्यते इति विषयः. अग्रे सुन्दरमहोदय, भवान् पठतु.
इमानि रूपाणि दृष्ट्वा अवगम्यते यत् गणं निमित्तीकृत्य रूपभेदः न भवति. कारणं किम्? नूल् प्रत्ययः सार्वधातुकः नास्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिर्नास्ति. कर्तरि शप् न भवति चेत् शप् न भवति, शप् न भवति चेत् अपरेषां गणानां विकरणप्रत्ययाः अपि न भवन्ति. यतोहि ते सर्वे शपं प्रबाद्य एव आयान्ति। शप् नास्ति चेत् श्यन् श्नु श इत्यादयः विकरणप्रत्ययाः अपि न भवन्ति। तेषाम् अभावे गणं निमित्तीकृत्य रूपभेदः न भवति। तदेव एतत् एते सर्वे सर्वाणि रूपाणि दृष्ट्वा वयं जानीमः यत् रूप गणं निमित्तीकृत्य गणकारणेन दट् इस् विकरणप्रत्ययस्य कारणेन गणभेदाः सन्ति। गणं निमित्तीकृत्य रूपभेदाः न भवन्ति। किमर्थं चेत् ण्वुल् प्रत्ययः सार्वधातुकः नास्ति, आर्धधातुकः अस्ति। अतः कर्तरि शप् इत्यस्य विधानं न भवति। कर्तरि शप् न आयाति चेत् तस्य शपं प्रबाद्य अन्य कोऽपि विकरणप्रत्ययः अपि न आगन्तुं शक्यते। इति कारणतः कोऽपि गणभेदाः एव न भवन्ति। शप् नास्ति चेत् सर्वे श्यन् श्नु श इत्यादयः विकरणप्रत्ययः अपि न भवितुं शक्यते। तेषाम् अभावे गणं निमित्तीकृत्य रूपभेदाः अपि न भवन्ति। तदेव अत्र लिखितम्।
उपरि रूपाणि पश्यामश्चेत् गणं निमित्तीकृत्य रूपभेदः नास्ति। धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम तत्र रूपसाम्यं दृश्यते। आर्धधातुकप्रक्रियायां रूपसाम्यं दृश्यते, किन्तु तत्र भेदः आयाति। सः भेदः किमर्थम् आयाति इति प्रश्ने सति तत्र आर्धधातुककृत् प्रत्ययं निमित्तीकृत्य धातौ अङ्गकार्यं भिद्यते। धातोः स्वरूपम् आश्रित्य, धातोः स्वरूपस्य आधारेण तत्र अङ्गकार्यं भिद्यते इति कारणतः तत्र रूपभेदः, न तु गणं निमित्तीकृत्य इति ज्ञातव्यः अंशः। नूल् प्रत्ययस्य प्रसङ्गे प्रत्ययः सेट् वा अनिट् वा किञ्चित् वदतु।
नूल् प्रत्ययः अनिट् प्रत्ययः, किमर्थं चेत् तत्र वलादिप्रत्ययः नास्ति। अक इति नूल् प्रभा आदेशः भवति। अक इति आदेशः भवति। अकारः वलादिप्रत्ययः नास्ति इति कारणेन सः अनिट् प्रत्ययः, सेट् न भवति।
उत्तमं। प्रक्रियायाः आदौ प्रथमतया किं करणीयं, धातुतः अनुबन्धलोपं कुर्मः, पश्चात् प्रत्ययं स्वीकृत्य तत्रापि अनुबन्धवर्णाः के इति दृष्ट्वा अनुबन्धलोपं कृत्वा पश्चात् आर्धधातुकप्रक्रियायां केवलम् इडागमचिन्तनं करणीयं, सः प्रत्ययः सेट् वा अनिट् वा इति द्रष्टव्यम्। आर्धधातुककृत् प्रत्ययानां प्रसङ्गे सूत्रद्वयं स्मर्तव्यम्। आर्धधातुकस्येड् वलादेः अपि च नेड्वशीकृति, नेड्वशीकृतिसूत्रमपि द्रष्टव्यम्। आर्धधातुककृत् प्रत्ययानां प्रसङ्गे, आर्धधातुकतिङन्तानां प्रसङ्गे केवलम् आर्धधातुकस्येड् वलादेः इति सूत्रं पर्याप्तं भवति, किन्तु आर्धधातुकृदन्तानां प्रसङ्गे सूत्रद्वयमपि परिशीलनीयम्। इत्युक्ते प्रत्ययस्य आदिमवर्णः वश् वर्णः मा भूत् इत्यपि तत्र चिन्तनमस्ति खलु। अग्रे पठतु। अनियर् कीदृशः
अनियर्? अनियर् इति प्रत्ययं पश्येम। अयं प्रत्ययः न तिङ् न वा शित् अतः आर्धधातुकः। अनियर् न केवलम् आर्धधातुकः अपि तु कर्मणि अर्थे न तु कर्तरि अर्थे अस्ति। अस्मात् कारणद्वयात् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति। अत्र हलन्त्यम् इत्यनेन रेपः इत्संज्ञा, हलन्त्यम् इत्यनेन रेपः इत्संज्ञा भवति, तस्य लोपः इत्यनेन लोपः, अनिय एव अवशिष्यते। अनियत् प्रत्ययं स्वीकुर्मश्चेत् तत्र एतत् तिङ्गपि नास्ति शीतपि नास्ति इति इत्यतः सः आर्धधातुकप्रत्ययः एव। न केवलम् आर्धधातुकः, सः कर्त्रर्थे नास्ति, कर्मणि अर्थे एव अनियत् प्रत्ययः प्रयोक्तुं शक्यते। अस्मात् कारणद्वयात् कर्तरि शप् इत्यस्य कर्तरिष कर्मणि अर्थे अस्ति इति कारणतः एवं न न तिङ् न वाशित् इति कारणतः अत्र कर्तरिषप् इत्यस्य प्रसक्तिः कदापि न भवति. अत्र हलन्तम् हलन्त्यम् इति सूत्रेण रेफस्य संज्ञा भवति एवं तस्य लोपः इति लोपः भवति अनीय इत्येव अवशिष्यते. तदेव
साधु तदेव अत्र दत्तमस्ति. अनियर् इति प्रत्यये अन्तिमरेफः हलन्त्यम् इति सूत्रेण इत् संज्ञकः भूत्वा तस्य लोपः इति सूत्रेण रेफस्य लोपः भवति अनीय इति एव अवशिष्यते. अयं प्रत्ययः तिंशित् नास्ति इत्यतः अर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकः अस्ति. पूर्वं णुवुल् प्रत्ययः, णुवुल् प्रत्ययः कर्तरीकृत् सूत्रेण कर्त्रार्थकप्रत्ययः, किन्तु अयं प्रत्ययः कर्मार्थकप्रत्ययः. तत्र एकं सूत्रमस्ति तयोरेव कृत्यक्त खलर्थाः, तयोरेव कृत्यक्त खलर्थाः, तयोः एव इति कथनेन भावार्थे कर्मण्यर्थे. कृत्प्रत्ययः भिन्नः, कृत्यप्रत्ययः भिन्नः. तस्मिन् सूत्रे किमुक्तमस्ति तयोरेव कृत्यक्त खलर्थाः. कृत्यप्रत्ययः, क्ताप्रत्ययः, खलर्थकप्रत्ययाः ते सर्वे भावार्थे कर्मण्यर्थे एव भवन्ति इति अर्थः. इत्युक्ते कर्तरीकृत् इति सामान्यसूत्रमस्ति, तस्य अपवादः एव तयोरेव कृत्यक्त खलर्थाः. तेन सूत्रेण अनियर् प्रत्ययः कर्मार्थकप्रत्ययः भवति. कर्तरिषप् आगन्तुं तत्र निमित्तद्वयम् आवश्यकं खलु, सार्वधातुकप्रत्ययः कर्तरर्थकप्रत्ययः स्यात्. किन्तु अयम् अनियर् प्रत्ययः सार्वधातुकः नास्ति, आर्धधातुकः, अपि च कर्तरर्थकः नास्ति. अतः कारणद्वयेन कर्तरिषप् सूत्रस्य प्रसक्तिः नास्ति. अपि च कर्मार्थकप्रत्ययः इति उक्तमस्ति. महोदय एकं वाक्यं वदतु, नो चेत् अहं वदामि, भवान् विवृणोतु. बालकेन गृहं गमनीयं, छात्रेण पुस्तकं पठनीयं, मया मधुरं खादनीयं, भवद्भिः उत्तराणि वदनीयानि, अथवा छात्रैः उत्तराणि लेखनीयानि इत्यादिषु वाक्येषु किमस्ति, भवान् विवृणोतु. कर्मार्थकप्रत्ययः इति उक्तमस्ति. कर्मार्थकप्रत्ययः नाम किम् इति अपि ज्ञातव्यम्. कानिचन वाक्यानि स्वीकृत्य परिशीलयामश्चेत् अवगन्तुं शक्नुमः. छात्रेण पुस्तकं पठनीयं, महोदय वदतु. सुन्दरमहोदय,
छात्रेण पाठः पठनीयं,
छात्रेण पुस्तकं पठनीयं, पाठः
पठनीयः, पुस्तकं पठनीयम् इत्युक्ते अत्र कर्मणि प्रयोगे अस्ति इति कारणेन तृतीयाविभक्तिः अस्ति. छात्रेण इति कर्ता तृतीयाविभक्तौ अस्ति, एवं कर्म प्रथमाविभक्तौ अस्ति. पुस्तकं पाठः एतत् सर्वं प्रथमाविभक्तौ अस्ति. एवम् एतत् पठनीय इति अनियर् प्रत्ययः सः कर्मम् अनुसृत्य तस्य भेदः अस्ति. इत्युक्ते पाठाः पठनीयाः, पुस्तकं पठनीयम्, एतत् वचनमपि कर्मम् अनुसृत्य. कर्म अनुसृत्य भवति, वचनमपि कर्म अनुसृत्य भवति, एवं लिङ्गमपि कर्म अनुसृत्य एव भवति. एतत् तस्य ओके, एतत् तस्य वैशिष्ट्यं भवति अनियर् प्रत्ययस्य कर्मणि विभक्तौ कर्मण्यर्थे भवति इति कारणेन.
साधु उक्तवान् महोदय, तदेव कर्मणि प्रयोगे नियमः अस्ति, त्रीणि एकम् एकम् इति नियमः अस्ति. इत्युक्ते कर्मणि प्रयोगे क्रियापदं कर्मपदम् अनुसरति. कर्मणि प्रयोगः इति नाम किमर्थं दत्तमस्ति, कर्मणि प्रयोगे कर्मपदस्य प्राधान्यमस्ति. अनियर् प्रत्ययान्तशब्दः सर्वदा कर्मपदस्य विशेषणं भवति. पुस्तकं पठनीयं, छात्रेण पुस्तकं पठनीयं, इत्यत्र पुस्तकम् इति कर्मपदम् अस्ति, तस्य प्रथमा विभक्तिः अस्ति, पुस्तकम् इत्यस्य विशेषणमेव पठनीयम् इत्युक्ते अनियर् प्रत्ययान्तशब्दः कर्मपदस्य विशेषणं भवति, अपि च अनियर् प्रत्ययान्तशब्देन कर्मपदम् उक्तमस्ति, अनियर् प्रत्ययान्तशब्देन कर्म उक्तत्वात् पुस्तकम् इत्यस्य प्रथमाविभक्तिः भवति, पठनीयम् इत्यस्यापि प्रथमाविभक्तिः भवति, इत्युक्ते कर्मपदम् अनुसृत्य क्रियापदं सम्भवति। क्रियापदम् इति कथनेन तिङ्गतपदं वा भवतु कृदन्तपदं वा भवतु कर्मपदम् अनुसृत्य भवति कर्मणि प्रयोगे, इत्युक्ते कर्मणि प्रयोगे कर्मपदस्य प्राधान्यमस्ति। अनियर् प्रत्ययान्तशब्देन कर्म उक्तमस्ति इति कारणतः उक्तत्वात् तस्य प्रथमाविभक्तिः, तत्र अभिहितत्वात् अभिहिते इति कथनेन उक्तत्वात् इति अर्थः अस्ति, उक्तत्वात् तस्य प्रथमाविभक्तिः। किन्तु कर्तरिप्रयोगे किं भवति, छात्रः पुस्तकं पठेत्, अनियर् प्रत्ययस्य अर्थः यः अस्ति स एव अर्थः कर्तरिप्रयोगे विधिलिङ्गरूपं योजयामश्चेत् सिद्ध्यति। पठेत् इति विधिलिङ्गरूपम् अस्ति खलु, छात्रः पुस्तकं पठेत् इत्यस्मिन् वाक्ये पुस्तकम् इति कर्मपदम् अस्ति, इदं वाक्यं कर्तरिप्रयोगे अस्ति इति कारणतः कर्तृपदस्य प्राधान्यम् अस्ति, इत्युक्ते क्रियापदं कर्तारम् अनुसरति न तु कर्मपदम्। कर्तरिप्रयोगे अनभिहिते कर्मणि द्वितीया इति सूत्रमस्ति, अनभिहिते इत्युक्ते अनुक्तत्वात् कर्मणि द्वितीया इत्युक्ते कर्मपदस्य द्वितीया विभक्तिः भवति। कर्मणि प्रयोगे कर्मपदस्य प्रथमा विभक्तिः, कर्मपदम् अनुसृत्य क्रियापदं सम्भवति, किन्तु कर्तरिप्रयोगे कर्तृपदम् अनुसृत्य क्रियापदं सम्भवति, कर्तृपदस्य प्रथमा विभक्तिः भवति। अनभिहिते कर्मणि द्वितीया इति सूत्रेण कर्तरिप्रयोगे कर्मपदस्य द्वितीया विभक्तिः भवति। छात्रः पुस्तकं पठति इत्यत्र पुस्तकम् इत्यस्य द्वितीया विभक्तिः अस्ति, छात्रेण पुस्तकं पठनीयं, बालकेन गृहं गमनीयम् इत्यादिषु वाक्येषु कर्मपदस्य प्राधान्यमस्ति। यस्मिन् वाक्ये कर्मपदस्य प्राधान्यम् अस्ति तद्वाक्यं कर्मणि प्रयोगे अस्ति इति वक्तव्यम्, यस्मिन् वाक्ये कर्तृपदस्य प्राधान्यम् अस्ति तद्वाक्यं कर्तरिप्रयोगे अस्ति। अपि च तयोरेव कृत्यक्तखलर्थाः सूत्रेण अनियर् प्रत्ययः कर्मार्थकप्रत्ययः भवति, अपि च आर्धधातुकः अतः कर्तरीषप् आगन्तुं न शक्नोति, यदा कर्तरीषप् न आयाति तदा धातुगणचिन्तनं नास्ति। इदानीम् अत्र रूपाणि दत्तानि, रूपाणि एकवारं परिशीलयाम। अनियर् प्रत्ययं निमित्तीकृत्य कीदृशम् अङ्गकार्यं भवति, कथम् अङ्गकार्यं भिद्यते, धातुगणम् अनुसृत्य न भिद्यते किन्तु धातोः स्वरूपम् आश्रित्य अनियर् प्रत्ययं निमित्तीकृत्य धातौ अङ्गकार्यं भिद्यते इति अवगन्तुं शक्नुमः, उदाहरणानि अवलोक्य अवगन्तुं शक्नुमः। सत्यभामा भगिनी भवती पठतु।
भुवादौ पठ् योगः अनियर् अत्र रेफः हलन्त्यं सूत्रेण अवगच्छति, अनीय इति तिष्ठति, सामान्यकृत्प्रत्ययः अस्ति, पठयोगः अनीय वर्णमेलनं कृत्वा पठनीय इति रूपम्। अदादौ वच्योगः अनीय वर्णमेलनं कृत्वा वचनीय इति रूपम्। जुहोत्यादिगणौ दायोगः अनीय, अत्र सन्धिकार्यं भवति अतः दानीय इति सवर्णदीर्घसन्धि। तदनन्तरं दिवादौ नश् इति धातुः, अत्रापि वर्णमेलनं कृत्वा नशनीय इति रूपम्। स्वादिगणे आप् धातुः आप् योगः अनीय आपनीय इति रूपम्।
साधारणतया स्वादिगणः इति वदामः, अत्र सुवादौ इति लिखितमस्ति,
परन्तु सुयोगः आदौ इति अस्ति, अत्र वकारः कथम् अत्र सन्धिकार्यं भवति वा, आव् आदेशः भवति वा, एवं वा,
पठनीय वचनीय दानीय नशनीय आपनीय एतावत्पर्यन्तं अङ्गकार्यम् इत्युक्ते अनियर् प्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे अङ्गकार्यं किमपि नास्ति. किमर्थम्?
अनियर् प्रत्ययः अर्थधातुकप्रत्ययः अस्ति, अपि च अत्र
धातून् पश्यतु, गुणकार्यम् अथवा वृद्धिकार्यं किमपि कार्यं भवितुं तत्र आनुकूल्यं नास्ति. पठ् वच् नश्य आप् इत्यादिषु अनियर् प्रत्ययं निमित्तीकृत्य विशिष्टम् अङ्गकार्यं किमपि नास्ति, केवलं वर्णमेलनं खलु.
सामान्यकृत्प्रत्ययः इति कृत्वा अत्र कोऽपि कार्यं नास्ति.
सामान्यकृत्प्रत्ययः, किन्तु अत्र धातुः इगन्तः नास्ति, अजन्तः नास्ति. पठ् धातुतः केवलं वर्णमेलनेन पठनीय, वच् धातुतः वचनीय. तत्र अनियर् प्रत्ययं निमित्तीकृत्य पठ् इति धातुरूपी अङ्गे अङ्गकार्यं नास्ति. किमर्थम् इत्युक्ते इगन्तधातुः नास्ति, अजन्तः अपि नास्ति. लिख् पठतु.
लिख् योगः अनीय. अत्र धातौ आनुकूल्यम् अस्ति, यतोहि इगुबधा धातुः अस्ति, तस्मात् कारणात् अत्र पुगन्तलघुपदस्य सूत्रेण लिख् गुणकार्यं भूत्वा लेख् इति भवति, लेखनीय इति रूपम्.
भिद्
भिद् अत्र अत्रापि उपधा इगुपधा धातुः अस्ति, अतः गुणकार्यं भवति पुगन्तलघुपदस्य इति सूत्रेण, भेदनीय इति रूपम्. कृयोगः अनीय, तत्र इगन्धधातुः अस्ति, अत्र सार्वधातुक अर्थधातुकयोः इति सूत्रेण गुणकार्यं भवति, कर् इति भवति. रेफस्य निमित्तात् अत्र नकारस्य नकारादेशः भवति, अतः करणीय इति रूपम्.
क्रूधातोः प्रसङ्गे करणीय इति भवति. लिख् धातुः इगुपद्धधातुः, लघु इगुपद्धधातुः. भिद् धातुः अपि लघु इगुपद्धधातुः. तादृशधातोः परम् आर्धधातुकप्रत्ययः अनियर् प्रत्ययः अस्ति इति कारणतः पुगन्तलघुपधस्य च सूत्रेण गुणकार्यं भवति. पुगन्तलघुपधस्य च इत्यस्मिन् सूत्रे सार्वधातुकार्धधातुकयोः सूत्रस्य सम्पूर्ण अनुवृत्तिः अस्ति इति कारणतः लिख् धातोः प्रसङ्गे गुणकार्यम् अनियर् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं गुणकार्यम् अस्ति. भिद् धातोः प्रसङ्गे अपि गुणकार्यं पुगन्तलघुपधस्य च सूत्रेण भवति. अचोणिति किमर्थं कार्यं न करोति क्रूधातोः प्रसङ्गे?
अचोणिति सूत्रं नित् प्रत्यये परे एव कार्यं करोति. अत्र तु अनियर् प्रत्ययः तादृशप्रत्ययः नास्ति.
णित् नास्ति इति कारणतः, अपि च अत्र धातुः इगन्तधातुः, इगन्तधातुः ऋकारः इक् प्रत्याहारे अस्ति इति कारणतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः, तेन क्रु इत्यस्य रूपं कर् भवति. उरण् रपरः सूत्रेण रपरः भवति इत्यतः कर् भवति. करणीय इति रूपं भवति. करणीय इति केवलं प्रातिपदिकं, किन्तु अस्य रूपाणि त्रिषु लिङ्गेषु सन्ति. अग्रे वदतु.
क्री क्रयादिगणीयधातुः अस्ति, क्रीयोगः अनीय इत्यत्र क्रयणीय इति रूपम्. अत्र क्री योगः अनीय, अत्र क्री इति ईकारान्तधातुः अस्ति, अनन्तरम् आ इति अस्ति. ईकारान्तधातुः अस्ति चेत् अत्र गुणकार्यं भवति, एकारः भवति. तदनन्तरं यजोयवायवः इति सूत्रेण अयादेशः भवति, क्रयणीय इति रूपं भवति.
अत्र गुणकार्यं भवितुं सूत्रं किम्?
सार्वधातुक अर्थधातुकयोः गुणः इत्यनेन अङ्गमस्ति, अतः अनेन सूत्रेण गुणकार्यं भवति. अर्थधातुकप्रत्ययः परे अस्ति.
उत्तमम्. अनियर् अर्धधातुकप्रत्ययं निमित्तीकृत्य क्री इति इगन्तधातुः अस्ति इति कारणतः सार्वधातुक अर्धधातुकयोः इकः गुणः भवति. क्री ईकारस्य गुणः भूत्वा एकारः भवति, पश्चात् यचोयवायावः सन्धिकार्यं भूत्वा एकारस्य स्थाने ऐ आदेशः भवति, तेन क्रयणीय इति रूपं भवति. क्रूधातोः प्रसङ्गे करणीय, क्रीधातोः प्रसङ्गे क्रयणीय भवति. णत्वम् अस्ति खलु? किमर्थं णत्वम्?
रेफस्य प्रभावात् अत्र रेफः अस्ति, अतः रेफः अस्ति इति कारणात्
अणत्वं केन सूत्रेण अणत्वं भवति? करणीय इत्यत्र अट् प्रत्याहारस्थ वर्णः कः?
अकारः.
रेफोत्तरवर्ति अकारः प्रत्याहारस्थः वर्णः. अट् प्रत्याहारस्थवर्णः अस्ति, तत्र बाधा नास्ति, इत्यतः अणत्वं भवति. अट् कुप्वाङ्गनं व्यवायेऽपि सूत्रेण. क्रयणीय इत्यत्र णत्वस्य प्रसङ्गे चिन्तनं किम्?
क्रयणीय इत्यत्र अत्रापि यकारः अपि च अकारः उभयमपि अट् प्रत्याहारे वर्तते, अतः अत्रापि निमित्तं वर्तते.
उत्तमम्. अट् प्रत्याहारे सर्वे स्वराः अपि च हयव, यकारः अट् प्रत्याहारे अस्ति. यकारः अपि च अकारः वर्णद्वयम् अस्ति चेदपि तत्र बाधा नास्ति, अतः ऋणत्वं भवति. अतः एव क्रयणीय इति प्रातिपदिकम्. चुरादिगणे किं भवति?
चुरादिगणे धातुः अस्ति छुर् इति. अनन्तरं चुरादिगणीय ईकारः गणविकरणप्रत्ययः आगच्छति वा? अत्र ईकारः छोरि इति.
चुर् धातुतः णिच् प्रत्ययं योजयतु.
चुर् धातु अनन्तरं णिच् प्रत्ययः छुटु सूत्रेण नकारः इत्संज्ञा भवति. णिच् चकारः हरन्त्यं सूत्रेण इत्संज्ञा भवति. तस्य लोपः इत्यनेन उभयोः लोपः भवति. इकारः अवशिष्यते. चुर् योगः इ चोरि इति. तदेव नूतनधातुः सन् निजन्तधातुः. चोरि योगः अनीय अनीय. अत्र चोरणीय इति अस्ति. चोर पूर्वमुक्तमस्ति नेरनिडि सूत्रेण अत्र ईकारस्य लोपः भवति इति. अत्रापि गच्छति
नेरनिडि इति सूत्रेण नेः लोपः भवति. अनिट् आर्धधातुकप्रत्यये परे अनिट् आर्धधातुकप्रत्यये परे नेः लोपः भवति नेरनिटि इति सूत्रेण. नेः अनिटि इति तत्र पदविच्छेदं कुर्मः चेत् वदतु.
अनिट् आर्धधातुकप्रत्यये परे नेरनिटि इति सूत्रेण इकारस्य लोपः भवति. अतः चोर् इति एव तिष्ठति. चोर् योगः अनीय चोरणीय. अत्रापि रेफस्य प्रभावात् नकारस्य नकारादेशः भवति, नत्वं भवति चोरणीय इति एव रूपम्.
उत्तमं, बहु सम्यक् भगिनी. रेफोत्तरवर्ति अकारः अट् प्रत्याहारस्थवर्णः. अट् प्रत्याहारस्थवर्णः अस्ति चेदपि नत्वस्य कृते बाधा नास्ति, नत्वं भवितुं शक्नोति. उदाहरणानि परिशील्य किम् अवगतवन्तः वयम्? अनियर् प्रत्ययं निमित्तीकृत्य धातुम् आश्रित्य धातुरूपी अङ्गे भिन्नानि अङ्गकार्याणि भवन्ति, तावानेव भेदः. तत्र गणीयभेदः नास्ति, इत्युक्ते गणम् अनुसृत्य रूपभेदः नास्ति, गणचिन्तनं नास्ति. किन्तु प्रत्ययं निमित्तीकृत्य धातोः रूपम् आश्रित्य तत्र अङ्गकार्याणि भिद्यन्ते. अनियर् प्रत्ययस्य प्रसङ्गे कारणद्वयेन कर्तरिषप् नायति. वदतु कारणद्वयं किम् उक्तम्?
एकं तु कर्मणि अर्थे अस्ति इति कारणात् तत्र कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति. तदनन्तरं
आर्धधातुकः
प्रत्ययः अस्ति इति कारणात्.
उत्तमम्, अग्रे पठतु.
यत्र यत्र कृत् प्रत्ययः आर्धधातुकः तत्र तत्र धातुगणम् आधारीकृत्य भेदः न वर्तते. अतः यथा आर्धधातुकलकाराः आर्धधातुककृत् प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णान् अनुसृत्य चतुर्दशवर्गेषु विभज्यते. चतुर्दशः वर्गाः एते. यत्र यत्र कृत् प्रत्ययः आर्थधातुकः तत्र तत्र धातुगणाम् आधारीकृत्य भेदः न वर्तते. एतत् किम् इति चेत् पूर्वं सार्वधातुकलक प्रत्ययानां विषये वयं दृष्टवन्तः. अत्र धातुगणम् अनुसृत्य गणविकरणप्रत्ययः आगच्छति. तदनुसृत्य दशगणेषु धातवः विभजितः. परन्तु इदानीं तादृशभेदः अत्र नास्ति. धातुगणम् आधारीकृत्य भेदः न वर्तते. अतः यथा आर्थधातुकलकाराः आर्थधातुककृत् प्रत्ययानां प्रक्रियार्थम् अत्र अधः कथं क्रियते इति चेत् अन्तिमवर्णाम् अनुसृत्य चतुर्दश वर्गेषु विभज्यते इति उक्तं. धातूनां प्रत्येकस्मिन् गणम् अनुसृत्य अत्र विभजनं नास्ति, परन्तु धातोः अन्तिमवर्णः अथवा उपधायां कः वर्णः तद् दृष्ट्वा अत्र चतुर्दशवर्गेषु विभज्यते इति उक्तम्.
साधु एव भगिनि. पूर्वं किं पठितम् इत्युक्ते पाणिनीयधातुपाठे ये ये धातवः सन्ति ते धातवः सर्वे औपदेशिकाः अथवा उपदिष्टाः, पाणिनिना उपदिष्टाः धातवः 2000 सन्ति. स्वराङ्कितधातुपाठं पश्यामश्चेत् अवगन्तुं शक्नुमः 2000 धातवः सन्ति, ते सर्वे 2000 धातवः पाणिनिना उपदिष्टाः. ते धातवः सार्वधातुकप्रक्रियार्थं 10 धातुगणेषु स्थापिताः सन्ति. सार्वधातुकप्रक्रियायां सौलभ्यार्थं सर्वे 2000 धातवः 10 गणेषु विभक्ताः सन्ति, स्थापिताः सन्ति. तेषु प्रथमः गणः भुवादिगणः. भुवादिगणे बहवः धातवः सन्ति, 1000 अप्राक्सिमेट्लि 1000 धातूस् भुवादिगणे एव सन्ति. 2000 धातून् धातुगणम् अनुसृत्य सार्वधातुकप्रक्रिया सौलभ्यार्थं 10 गणेषु स्थापिताः सन्ति. तादृशरीत्या अत्र अर्धधातुकप्रक्रियायाम् अपि विभजनं कुर्मः चेत् पर्याप्तं भवति वा इति प्रश्ने सति न. इत्युक्ते अर्धधातुकप्रक्रियायाः प्रसङ्गे भिन्नचिन्तनम् अस्ति इति कारणतः 2000 धातून् केवलं 10 गणेषु स्थापयामः चेत्, तादृशं वर्गीकरणं कुर्मः चेत् तद् पर्याप्तं न भवति. आर्धधातुकतिङन्तरूपसाधनार्थम् आर्धधातुककृदन्तरूपसाधनार्थं तादृशं विभजनं पर्याप्तं नास्ति इति माताजी अवगतवती. आर्धधातुकप्रक्रियासौलभ्यार्थं गणम् अनुसृत्य विभजनं कुर्मः चेत् लाभः नास्ति, तादृशगणविभजनेन आर्धधातुकप्रक्रियाप्रसङ्गे सौलभ्यं नास्ति, लाभः नास्ति इति चिन्तयित्वा आर्धधातुकप्रक्रियासौलभ्यार्थं रूपसिद्ध्यर्थं आर्धधातुककृदन्ततिङन्तरूपाणां साधनार्थम् अस्माकं सौलभ्यार्थं माताजी एवं रीत्या 14 धातून् स्थापितवती. अत्र 14 दत्ताः. यथा भगिन्या उक्तं धातोः अन्तिमवर्णम् अनुसृत्य धातवः विभक्ताः. एतत् सर्वं किमर्थं माताजी कृतवती? प्रक्रियासौलभ्यार्थम्, आर्धधातुकप्रक्रियासौलभ्यार्थम् एवं कृतवती. अपि च अष्टाध्यायीग्रन्थे पाणिनीयसूत्राणि एवं रीत्या क्रमेण सन्ति. पाणिनीयसूत्राणि दृष्ट्वा अवलोक्य माताजी एवम् 2000 धातून् 14 स्थापितवती. तदर्थम् एतादृशवर्गीकरणं कृतवती. भगिनी भवती वदतु अग्रे.
अकारान्ताः यथा कथ गण रच रचा इत्यादयः. प्रथम वर्गः अस्ति अकारान्तधातूना.
भगिनि आदौ सर्वं पठतु.
आकारान्ताः यथा पा ला वा दा था इत्यादयः. इकारान्ताः जि षि चि कि रि इत्यादयः. ईकारान्ताः यथा नि षि दि क्रि वि इत्यादयः. उकारान्ताः यथा दृ नु कु गु क्षु इत्यादयः. ऊकारान्ताः यथा फु लु पु नु मु इत्यादयः. ऋकारान्ताः यथा हृ थृ खृ क्षम्यत थृ मृ कृ खृ स्मृ इत्यादयः. ऋकारान्ताः यथा जृ थृ सृ गृ वृ इत्यादयः. एजन्ताः यथा ग्लै म्लै थै घै पै शै छै छौ एजन्दाः इति कृत्वा शो छो इत्यादयः अदुबथा पठ चल् वद्
स्खल्
स्खल् कक् पच् चट् इत्यादयः इदुबथा चित् मित् छित् भिद् निद् मिल् इत्यादयः उदुबथाः यदा बुध् शुद्ध् मृद् कुक् उख् इत्यादयः ऋदुबथाः यथा कृष् वृष् नृत् छृत् वृत् वृथ् इत्यादयः अवशिष्टाः ये न सन्ति येषु वर्गेषु यथा मील् शीक् पुक् अञ्च् इत्यादयः
अजन्तधातवः नववर्गेषु सन्ति खलु अकारान्ताः आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः ऊकारान्ताः ऋकारान्ताः ऋकारान्ताः एजन्ताः एते नववर्गाः अजन्तधातूनां प्रसङ्गे दत्तवती इत्युक्ते धातोः अन्तिमवर्णम् अनुसृत्य अकारान्ताः इति कथनेन के के धातवः दत्ताः अत्र
गण कथा गण रच इति त्रयः गणः
इत्यादयः अस्माकं चर्चका इत्युक्ते अर्धधातुकप्रक्रियायां किं भवति इत्युक्ते अर्धधातुकप्रत्यये परे एते धातवः कथं प्रवर्तन्ते इति अवगन्तव्यं खलु अतः अस्माकं सर्वेषां कृते सामान्यप्रत्ययः परिचितप्रत्ययः णिच् प्रत्ययः अस्ति णिच् प्रत्ययं स्वीकृत्य एतेषां धातूनां प्रसङ्गे निजन्तरूपाणि कथं साधनीयानि इति परिशीलयामश्चेत् इतोपि स्पष्टतया अवगन्तुं शक्नुमः किमर्थं माताजी एवं वर्गीकरणं कृतवती इति अस्य अवगमनम् इतोपि स्पष्टतया भवति अतः निच्प्रत्ययं निमित्तीकृत्य एतेषु धातुषु किं किं कार्यं भवति इति परिशीलयामश्चेत् अत्र कथा गण रज इति अकारान्तधातवः उक्तमस्ति किन्तु एतेषां धातूनां प्रसङ्गे निच् प्रत्यये परे एकं विशिष्टं सूत्रम् आगत्य अकारलोपं करोति कथा कथयति इति रूपं भवति कद् धातुतः निजन्तधातुः किम् अस्ति गण् धातुतः गणि भवति रच् धातुतः रचि भवति यद्यपि एते धातवः अकारान्ताः इति उक्तमस्ति तथापि आर्धधातुकप्रक्रियायाः प्रसङ्गे अकारान्ताः न सन्ति इति वक्तुं शक्यते किमर्थं चेत् एतेषां धातूनां प्रसङ्गे अतोलोपः इति एकं विशिष्टं सूत्रम् आगत्य एतान् धातून् हलन्तधातून् करोति इत्युक्ते एते धातवः अतोलोपः इति सूत्रेण हलन्ताः भवन्ति इत्युक्ते वस्तुतः आर्धधातुकप्रक्रियायाः प्रसङ्गे ह्रस्व अकारान्तधातवः इति वर्गः नास्ति इति एव वक्तुं शक्यते एते धातवः यद्यपि अकारान्ताः इव दृश्यन्ते तथापि अतोलोपः सूत्रेण अकारलोपः भूत्वा हलन्ताः भवन्ति अन्ततो गत्वा
क्षम्यतां प्रथमसोपाने एव अतोलोपः इत्यनेन लोपः भवति इति चिन्तयामि
प्रथमसोपाने एव भवन्ति एते धातवः चुरादिगणे सन्ति यद्यपि कथा इति लिखितम् अस्ति इत्युक्ते थकारोत्तरवर्ति अकारः औपदेशिकावस्थायाम् अस्ति अतोलोपः सूत्रं किं वदति इत्युक्ते अर्धधातुकप्रत्यये परे ह्रस्व अकारान्तधातूनां प्रसङ्गे अतः लोपः भवति अतः इति कथनेन तत्र तपरकरणं कृतमस्ति इत्युक्ते ह्रस्व अकारस्य लोपः भवति अतोलोपः इति सूत्रेण एतेषां धातूनां परम् आर्धधातुकप्रत्ययः अस्ति चेत् तत्र स्थितस्य अकारस्य लोपः भवति अन्ततो गत्वा एते धातवः हलन्ताः भवन्ति इति अत्र स्मर्तव्यः अंशः कद् धातुतः कथयति गण् गणयति रच् रचयति वस्तुतः कथ एव किन्तु अकारलोपः भवति चेत् कथ् भवति कथ् योगः ई कथि इति णिजन्तधातुः आकारान्तानां प्रसङ्गे भवती वदतु
आकारान्तः धातूनाम् उदाहरणमस्ति पा ला वा दा था पा
भगिनी निच् प्रत्ययं मनसि निधाय वदतु निजन्तरूपं साधयामि इति मत्वा वदतु
पाययति इति रूपं भवति पाया अत्र पाया इति भवति चेत् यकारः पायोगः इ इति अतः इकारस्य अयादेशः भवति इकारस्य गुणकार्यं भवति एकारः भवति अयादेशः
तथा नास्ति किमर्थं वदन्ती अस्मि एतादृशविभजनेन सौलभ्यम् अस्ति इत्युक्ते सर्वे अकारान्तः एकत्र सर्वे आकारान्तः एकत्र एवं रीत्या माताजी तेषां वर्गीकरणं कृतवती किमर्थं चेत् तत्र प्रक्रिया साम्यमस्ति कथ रच गण इत्यादीनां प्रसङ्गे कार्यसाम्यमस्ति समानानि सूत्राणि कार्यं कुर्वन्ति इत्यतः ते सर्वे धातवः एकत्र स्थापिताः तत्र प्रक्रियासौलभ्यम् अस्ति अपि च आकारान्तानां प्रसङ्गे दा धातोः प्रसङ्गे किं भवति णिच् प्रत्यये परे
पुगागमः भवति
उत्तमम् अर्ति ह्रीव्लीक्नुयीक्ष्मायातां पुङ्णौ इति सूत्रेण पुक् आगमः भवति इत्यतः दापयति इति रूपं सिद्ध्यति किन्तु सर्वत्र पुक् आगमः भवति वा न कुत्रचित् युक् आगमः भवति यथा भवती उक्तवती पा धातोः रूपं पाययति पाययति इत्यत्र युक् आगमः भवति अपि च ला धातोः निजन्तरूपं पश्यामश्चेत् तत्र लुक् आगमः भवति लालयति इति रूपं सिद्ध्यति वा धातोः उदाहरणं दत्तमस्ति वा धातोः प्रसङ्गे जुक् आगमः भवति वाजयति इति रूपं भवति धा धातोः प्रसङ्गे धापयति इति रूपं भवति पाययति लालयति वाजयति धापयति धापयति इत्यादीनि रूपाणि साधयितुं शक्नुमः आकारान्तेभ्यः धातुभ्यः परं णिच् अस्ति चेत् किन्तु अत्र साम्यं किं सर्वत्र पुक् आगमः न भवति किन्तु कस्यचित् वर्णस्य आगमः भवति इति अवगन्तुं शक्नुमः इत्युक्ते सः आगमः पुक् वा भवतु लुक् वा भवतु जुक् वा भवतु युक् वा भवतु किमपि भवतु तत्र कस्यचित् वर्णस्य आगमनम् अन्यवर्णस्य आगमः भवति आर्धधातुकप्रत्यये परे इति अवगन्तुं शक्नुमः अतः सर्वे आकारान्ताः एकत्र स्थापिताः एवं रीत्या स्थापनेन तत्र साम्यमस्ति यद्यपि सर्वत्र पुक् आगमः एव न भवति तदापि कस्यचित् वर्णस्य अन्यवर्णस्य आगमः भवति एतेषां धातूनां प्रसङ्गे आर्धधातुकप्रत्यये परे निश्चिति परिचितप्रत्ययः खलु अतः निजन्तरूपाणि पश्यामश्चेत् तादृशी स्पष्टता मनसि आयाति एतादृशविभजनेन प्रयोजनमस्ति इति अवगन्तुं शक्नुमः अग्रे इकारान्ताः ईकारान्ताः उकारान्ताः ऊकारान्ताः ऋकारान्ताः ऋकारान्ताः इत्युक्ते अत्र षट् वर्गाः सन्ति तेषां प्रसङ्गे वदतु
जि जयति इति
पश्यतु भगिनि इकारान्ताः ईकारान्ताः उकारान्ताः ऊकारान्ताः ऋकारान्ताः ऋकारान्ताः एवं षट्सु वर्गेषु वर्गीकरणस्य आवश्यकता अस्ति वा नो चेत् केवलम् ईगन्ताः इति कथनेन पर्याप्तं भवति वा
ईगन्ताः इति कथनेन पर्याप्तं भवति इति चिन्तितवती
किमर्थं षट्सु वर्गेषु स्थापितवती कारणम् अस्ति खलु
निश्चयेन वर्तते कारणं पूर्वं केवलं गुणकार्यं सूत्रद्वयेन वयं दृष्टवन्तः परन्तु इदानीं बहूनि प्रत्ययानि आगच्छति अतः प्रत्ययेषु अपि भिद्यते खलु अत्र सामान्यप्रत्ययः नित् प्रत्ययः कित् नित् प्रत्ययः तादृशं वर्तते
उत्तमम् अत्र षड्वर्गाः सन्ति इकारान्ताः दीर्घ इकारान्ताः ह्रस्व उकारान्ताः दीर्घ ऊकारान्ताः ह्रस्व ऋकारान्ताः दीर्घ ऋकारान्ताः अत्र षड्वर्गाः सन्ति येषां षण्णां वर्गाणां विभजनं किमर्थं कृतमस्ति पृथक्तया षण्णां वर्गाणां विभजनं किमर्थं कृतमस्ति इति प्रश्नः उदेति इत्युक्ते एतान् षड्वर्गान् एकत्र स्थापयित्वा इगन्तधातवः इति अपि वक्तुं शक्यते किन्तु तदा कुर्मः चेत् पर्याप्तं नास्ति पृथक्तया एव करणीयं निच् प्रत्ययान्तरूपाणि पश्यामश्चेत् तत्र ईगन्तधातवः इति कथनेन पर्याप्तं भवति किन्तु आर्धधातुकप्रत्ययाः बहवः सन्ति अन्येषाम् आर्धधातुकप्रत्ययानां कृते एतादृशं विभजनम् आवश्यकमस्ति. निच् प्रत्ययस्य प्रसङ्गे षट् वर्गाः मिलित्वा एकं वर्गं कुर्मः चेत् पर्याप्तं भवति. इगन्ताः इति वर्गे स्थापयामश्चेत् पर्याप्तं भवति. णिच् इति एकः आर्धधातुकप्रत्ययः. अन्ये सर्वे आर्धधातुकप्रत्ययानां प्रसङ्गे तादृशं विभजनं पर्याप्तं न भवति, पृथक्तया एव करणीयम्. ची धातोः उदाहरणं स्वीकुर्मः. ची धातुतः चाययति इति णिजन्तरूपं सिद्ध्यति. नी धातुतः किं रूपं सिद्ध्यति भवती वदतु?
णिजन्तरूपयति
नाययति. ची धातोः प्रसङ्गे चाययति, नी धातोः प्रसङ्गे नाययति. द्रू धातोः निजन्तरूपं किं?
द्रावयति.
द्रावयति. भू धातोः निजन्तरूपं?
भावयति. भावयति.
ह्रू धातोः निजन्तरूपं?
हारयति.
चाययति इत्यत्र किं कार्यम् अस्ति? चायि इति नूतनधातोः निर्माणम् आदौ भवति, पश्चात् चायि इति रूपं साधयितुं तत्र अचोणिति इति सूत्रं कार्यं करोति खलु. ह्रस्व इकारान्तधातूनां प्रसङ्गे वदन्ती अस्मि, ची धातोः प्रसङ्गे णिच् प्रत्ययस्य योजनेन अचोयणिति इति सूत्रेण वृद्धिकार्यं भूत्वा चायि इति नूतनधातुः निजन्तधातुं निर्मामः, पश्चात् चाययति इति लटिरूपं सिद्ध्यति. नी इति दीर्घ ईकारान्तधातोः प्रसङ्गे अपि अचोर्णिति इति सूत्रेण णिच् प्रत्यये परे वृद्धिकार्यं भूत्वा नी ईकारस्य वृद्धिः भूत्वा नयि भवति, पश्चात् सन्धिकार्यं भूत्वा नायि इति निजन्तधातुः सिद्ध्यति, पश्चात् नाययति इति लटिरूपं सिद्ध्यति. एवमेव द्रु, द्रु इति उकारान्तधातुः, तत्रापि उकारस्य वृद्धिः एव भवति, अचोणिति इति सूत्रेण एव द्रावयति इति रूपं भवति. निजन्तधातुः अस्ति द्रावि. दीर्घ ऊकारान्तधातुः भू अस्ति. भू धातोः प्रसङ्गे अपि अचोणिति इति सूत्रेण वृद्धिकार्यं भूत्वा भावि इति नूतनधातुः भावयति इति निजन्तयुक्तं लटीरूपम् अस्ति. अत्र मम आशयः कः? एते धातवः इगन्तधातवः. एतेषां धातूनां परे णिच् प्रत्ययः अस्ति चेत् अजन्तधातूनां प्रसङ्गे अचोणिति इति कार्यं भवति. किन्तु कर्मणि प्रयोगे यक् इति प्रत्ययः आयति. सः यक् प्रत्ययः आर्धधातुकप्रत्ययः. यक् प्रत्यये परे भिन्नभिन्नकार्याणि भवन्ति. केवलम् इकारान्तधातून् स्वीकुर्मः चेत् जी धातोः प्रसङ्गे जीयते इति रूपं सिद्ध्यति, मृ धातोः प्रसङ्गे म्रियते इति रूपं भवति. इत्युक्ते अन्येषाम् आर्धधातुकप्रत्ययानां कृते पृथक्तया इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, रुकारान्ताः एवं पृथक्तया विभजनं करणीयमस्ति इति कारणतः माताजी एवं कृतवती. णिच् प्रसङ्गे इगन्तधातोः इति कथयामश्चेत् पर्याप्तं, किन्तु अन्येषाम् आर्धधातुकप्रत्ययानां प्रसङ्गे तत् पर्याप्तं नास्ति इत्यतः पृथक्तया वर्गीकरणं कृतवती. इदानीम् अदुपधाः इति उक्तमस्ति. भवती वक्तुमिच्छति वा अदुपध पदस्य विग्रहवाक्यम्? सुन्दरमहोदय भवान् वदतु. अदुपधः भगिनी भवती वदतु इदुपधः.
इत् उपधा यस्य सः इति.
उदुपधः.
उत् उपधा यस्य सः.
ऋदुपधः.
ऋत् उभधा यस्य सः.
उत्तमम्. अत्तु इत्तु उत्तु ऋत्तु इति उक्तवती, तस्य अर्थः कः?
केवलम् अस्य कालस्य एव आशयः, इत्युक्ते ह्रस्व अकारः एव अनेन स्वीकर्तव्यः इति.
तपरकरणं कृतमस्ति. अत्तु उपधा यस्य सः, इत्तु उपधा यस्य सः, उत्तु उपधा यस्य सः, ऋत्तु उपधा यस्य सः इति विग्रहवाक्यानि वक्तव्यानि. ऋदुपधः इति कथनेन ह्रस्वरुकारः उपधायाम् अस्ति इति अर्थः. ऋत् उपधायस्य सः इत्युक्ते तत्र तपरकरणं कृतमस्ति इति कारणतः ह्रस्वस्वरस्य एव ग्रहणं भवति. आहत्य अजन्तधातवः नवसु वर्गेषु स्थापिताः, हलन्तधातवः केवलं चतुर्षु वर्गेषु, अधुपदाः, इदुपदाः, उदुपदाः, रुदुपदाः, एवं चतुर्षु वर्गेषु एव सर्वे हलन्तधातवः स्थापिताः. इत्युक्ते हलन्तधातूनां कृते केवलं चत्वारः वर्गाः सन्ति. एकमेव वाक्यमस्ति, भवती पठतु.
अन्यच्च आर्थधातुकः कृत् प्रत्ययः चेत् इडागमविचारः करणीयः. इतोपि एकः कार्यमत्र किम् इति चेत् आर्थधातुकप्रत्ययः अत्र आगच्छति, तत्र इडागमविचारः करणीयः इति. अपि च अत्र अन्तिम अवशिष्टाः ये न सन्ति तदपि अस्ति खलु, नीर् शीक्
अवशिष्टाः इत्युक्ते those who don't belong to the above categories. अवशिष्टाः ये न सन्ति येषु वर्गेषु, यथा मील्, शीक्, बुक्, अञ्च् धातवः. इदानीम् अदुपधानां प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. सुजाता भगिनी, भवती वदतु, अत्र पठ् धातुः अस्ति, पठ् धातुतः णिच् योजनेन किं रूपं सिद्ध्यति?
पाठयति.
तत्र किं सूत्रं कार्यं करोति? पाठि इति नूतनधातोः निर्माणार्थम्
अचोणिति.
अदुपधधातुः पट्
वृत्ति भवति, पट् पाट् भवति. इच्छनेन
अत उपधायाः पठिति धातुः अदुपधधातुः. अतः उपधायां स्थितस्य ह्रस्ववर्णस्य वृद्धिः भवति, ह्रस्व अकारस्य वृद्धिः भवति अत उपधायाः इति सूत्रेण. तेन पाठि इति नूतनधातुः पाठयति इति लटीरूपम् अस्ति. वद् अस्ति चेत् लटीरूपं,
वदति लटीरूपं, वादयति निजन्तरूपम्.
उत्तमं. चल् अस्ति चेत्
चलति, चालयति.
चालयति इति निजन्तरूपम्. अस्माकं प्रक्रिया अस्ति अर्धधातुकप्रक्रिया, अतः निजन्तरूपं वक्तव्यम्. पच् धातोः निजन्तरूपं
पाचयति.
तत्र धातुः
पाचि भवति,
पाचि भवति. चट् धातुतः चट् इति धातुः अस्ति,
चट् चाटयति.
अपि च इदुपधानां प्रसङ्गे भिद् अस्ति चेत् किं भवति?
भेदयति.
भेदयति इति भवति. इदुपधधातुः इत्यतः भिद् इत्यत्र भिद् धातोः परं णिच् इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. आर्धधातुकप्रत्ययं निमित्तीकृत्य पुगन्तलघुपदस्य च इति सूत्रेण भिद् भेद् भवति. भेदि इति नूतनधातुः. उदुपधधातुः बुद्ध् अस्ति, तत्र किमस्ति?
बोधयति भवति. बुद्ध भो गुणः भूत्वा भो बोध भवति. बोधि निजन्त धातु अस्ति. बोधयति निजन्त
लटीरूपं,
लटीरूपम्.
उत्तमं. शुद्ध शोधयति, मुद् मोदयति, एवम् उदुपधानां प्रसङ्गे निजन्तरूपं साधयितुं शक्नुमः. रुदुपधाः अत्र कृष् धातोः रूपं
कृषि, कारयति, कृषयति, कृषयति.
न, अत्र चिन्तनं किम् अस्ति?
कर्षयति.
कर्षयति. महोदय, भवान् साधयतु. कर्षयति साधयतु.
कर्षयति. ओके. कृष् कृष्योगे णिच् भवति. तदनन्तरं णिच् प्रत्ययस्य चुटु एवं हलन्त्यम् इति सूत्रेण अनुबन्धलोपे सति इ एव अवशिष्यते. तदनन्तरं कृष्योगे इ भवति. तदनन्तरं आर्धधातुकप्रत्ययः णिच् प्रत्ययः आर्धधातुकप्रत्ययः इति कारणेन तस्य गुणः भवति आर्ध सार्वधातुक आर्धधातुकयोः इति सूत्र कृष् नो नो पुगन्तलघुपदस्य च इति सूत्रेण कृष् इति इति उपधाभूतस्य ऋकारन्तस्य ऋकारस्य गुणः भवति एवं पुगन्तलघुपदस्य च इति सूत्रेण कृ कर् भवति उरण्ड्रपरः अपि गुणः भूत्वा गुरण्ड्रपरः अपि कार्यं करोति एवं कर् भवति कर्षि इति भवति कर्षि इति आदिदेशकधातुः भवति एवं कर्षियोगे शप् योगे ति भवति एवं लशक् वदति ते इति सूत्रेण एवं हलन्त्यम् इति सूत्रेण शकारपकारयोः लोपः भवति आ एव अवशिष्यते कर्षियोगे आ योगे ति तदनन्तरम् अधुना कर्षि इति इगन्तधातुः इति कारणेन एवं शपं निमित्तीकृत्य तत्र गुणः भवति एवं कर्षि योगे आ योगे ति देन् कर्षै योगे आ योगे ति भवति कर्षै योगे ति कर्षयति इति अन्तिमं रूपं सिद्ध्यति.
साधु महोदय, तदेव अयं धातुः ऋदुपद्धधातुः, उपधायां ह्रस्वरुकारः अस्ति. कृष् धातोः परं णिच् प्रत्ययः अस्ति चेत् णिच् प्रत्ययं निमित्तीकृत्य ऋदुपद्धधातौ पुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भवति. कृष् इत्यत्र शकारात् पूर्वं ह्रस्वरुकारः ऋदुपद्धः, अतः पुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भवति. कर्षि इति नूतनधातुः. वृष धातोः प्रसङ्गे वर्षि इति नूतनधातुः. नृत् धातोः प्रसङ्गे नर्ति इति नूतनधातुः. नर्ति इति ईगन्तधातुः खलु, तस्मात् परं शपायति खलु, शपं निमित्तीकृत्य ईगन्तधातौ गुणकार्यं भवति. तत्र सार्वधातुक अर्धधातुकयोः सूत्रम् आयाति. आदौ तु पुगन्तलघुपधस्य च इति सूत्रेण एव णिच् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति. द्वितीयसोपाने यदा वयं लटीरूपं साधयितुमिच्छामः तदा अत्र णिच् प्रत्ययस्य योजनेन सर्वे धातवः इकारान्ताः भवन्ति खलु, कर्षि वर्षि नर्ति, एवम् इगन्तधातुः भवति खलु. अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण शप्रत्ययं निमित्तीकृत्य गुणकार्यं भूत्वा वर्षे इति रूपं, पश्चात् सन्धिकार्यं भूत्वा वर्षयति, नर्तयति, वर्तयति, वर्धयति इत्यादीनि रूपाणि साधयितुं शक्नुमः. किन्तु अवशिष्टानां प्रसङ्गे किं भवति, मील् अस्ति चेत् मीलयति, बुक्कयति, अञ्चयति इत्यादीनि रूपाणि सिद्ध्यन्ति. अत्र मुख्यवार्ता का इत्युक्ते, माताजी एवम् उपद्विसहस्रं धातून् चतुर्दशवर्गेषु वर्गीकरणं कृतवती. एतादृशम् आयोजनं किमर्थम् इत्युक्ते अनेन प्रयोजनमस्ति. अष्टाध्यायी ग्रन्थे सूत्राणि एतादृशरीत्या सन्ति, इत्युक्ते एतादृशरीत्या विभजनं कुर्मः चेदेव प्रक्रिया सौलभ्यं भवति. अष्टाध्यायी ग्रन्थे प्रक्रियाधारितसूत्राणि अनेन क्रमेण स्थापितानि सन्ति इति माताजी अवगतवती. अष्टाध्यायीग्रन्थे केन क्रमेण सूत्राणि प्रवर्तन्ते इति माताजी विस्तृतरूपेण रिसर्च् कृतवती. अतः एवं रीत्या धातूनां वर्गीकरणं, चतुर्दशवर्गाः सन्ति, प्रत्येकस्मिन् वर्गे बहवः धातवः सन्ति, तथापि प्रत्येकस्मिन् वर्गे एकं धातुं स्वीकृत्य रूपाणि साधयामश्चेत् अन्येषां धातूनां रूपाणि सुलभतया साधयितुं शक्नुमः. इत्युक्ते प्रत्येकस्मिन् वर्गे एकं धातुं स्वीकृत्य आर्धधातुकतिङन्तरूपम् अपि च आर्धधातुककृदन्तरूपं साधयामश्चेत् अपरेषां धातूनां रूपाणि सौकर्येण साधयितुं शक्नुमः. तदर्थं माताजी एवं कृतवती. अपि च इडागमविचारः परिचितः एव अस्माकं कृते, किन्तु अस्य पठनेन पुनस्मरणं भवति इति मत्वा आर्धधातुकप्रक्रियायाम् इडागमचिन्तनम् इति विषयः अग्रिमे सप्ताहे भविष्यति. तदा वयं तस्मिन् प्रसङ्गे चर्चां करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.
धन्यवादः भगिनी.
धन्यवादः.